ಜಲ್ಪನ್ ದಿವಾ ನಿಜ ಗಿರ ನನು ಪಕ್ಷಿಣೋಪಿ ಅಸ್ತಾಮಚಿಂತ್ಯ ಮಹಿಮಾ ಜಿನ ಸಂಸ್ತವಸ್ತೆ ಭವತು ಜಗಂತಿ ತೀವ್ರಾತಪೋಪಹತ ಪಾಂಥ ಜನಾನಿದಾಘಿ ಪ್ರೀಣಾತಿ ಪದ್ಮ ಸರಸ ಸರಸೋ ನಿಲೋಪಿ
ಚಿಂತ್ಯೋ ನ ಹಂತ ಮಹತ
तां यदि वा प्रभाव कथं खिल कर्म चौरा लोषत्यमत्र यदि वा शिशिरापि लोके नीलद्रुमाणि विपिनानि न किं हिमानि सदा परमात्मरूप अन्वेषयन्ति हृदयाम्बुजकोशदेशे भूतस्य निर्मलरुचिर्यदि वा किमन्य दक्षस्य संभव पदन ननु कर्णिकाया ध्यानाचिनेश भवतो भविन क्षणेन परमात्मदशां व्रजन्ति तीव्रानलादुपलभावमपास्य लोके चामीकरत्वमचिरादिव धातु भेदा कथं तदपि नाशयसि शरीरम् एतत् स्वरूपमथ मध्य विवर्तिनो हि यद्विग्रहं प्रशमयन्ति यन् त्वदभेदबुद्ध्या ध्यातो जिनेन्द्र भवतीह भवत्प्रभाव पानीयमप्यमृतमित्यनुचिन्त्यमानम् विकारमपाकरोति त्वामेव वीततमसं परवादिनोऽपि हरादिधिया प्रपन्ना किं काच कामलिभिरीशसितोऽपि शङ्खो नो गृह्यते विविधवर्णविपर्ययेन ये सविधानुभाव दासांजनो भवति ते करुणप्यशोक अभ्युद्गते दिनपतौ समहीरुहोऽपि किं वा विबोधमुपयाति न जीवलोक मवामुखवृन्तमेव विश्वपतस्य विरलासुरपुष्पवृष्टिः त्वद्गोचरे सुमनसाम्यनिवामुनीश प्रमादमवधूय भजध्वमील मागत्यनिवृत्तिपुरीं प्रति सार्थवाह एतन्निवेदयति देव जगत्त्रयाय नभः सुरदुन्दुभिस्ते उद्योतितेषु भवता भुवनेषु नाथ ताराम् विहताधिकार मुक्ता कलाप कलितोल्लसितात् पत्र व्याजात्रिधा धृततनुर्ध्रुवमभ्युपेतः जगत्त्रयपिण्डितेन कान्तिप्रतापयशसामिव सञ्चयेन माणिक्यहेमरजतप्रविनिर्मितेन सालत्रयेण भगवन् नभितो विभासि दिव्यस्रजो जिननमत्त्रिदशाधिपाना उत्सृज्यरत् रचितानपि मौलिबन्धान् पादौ श्रयन्ति भवतो यदि वा परत्र तत्सङ्गमे सुमनसो नरमन्त एव विपराङ्मुखोऽपि यत्तारयस्य सुमतो निजपृष्ठलतान् युक्तं हि पार्थिवनृपस्य सतस्तवैव कर्म विपाक शून्य विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वम् किं वाक्षर प्रकृतिरप्यलिपिस्त्वमीश अज्ञानवत्यपि सदैव कथञ्चिदेव ज्ञानं त्वयि स्फुरति विश्वविकासहेतु नभांसि रजांसि रोषा पितानि कमठेन शठेन यानि छायापितैस्तवननाथ हताहताशु ग्रस्तस्त्वमीभिरयमेव परन्दुरात्मा यत्कर्जदूर्जित घनौघमदभ्रभीम प्रश्यत्तणिन् मुसलमांसलघोरधारम् दैत्येन मुक्तमथ दुस्तरवारिदध्रे तस्य जिनदुस्तरवारिकृत्यम् हस्तोर्ध्वकेशविकृताकृतिमर्त्यमण्डप प्रालम् भयदवक्त्रविनिर्यदग्निः प्रीतव्रजः प्रतिभवन्तमपीरितो यः सोऽस्याभवत् प्रतिभवं भवदुःखहेतुः माराधयन्ति विधिवत् विधुतान्यकृत्याः भक्त्युल्लसत्पुलकपक्ष्मलदेहदेशाः पादद्वयं तव विभो भुवि जन्म भाज अस्मिन् अपार भववारि निधौ मुनीश मन्येन मे श्रवण गोचरताङ्गतोऽसि आकर्णिते तु तव गोत्र पवित्र मन्त्रे किं वा विपद् विषधरी सविधन् समेति तव पादयुगन्नदेव मन्ये मया महितमीहितदानदक्षम् तेनेह जन्मनि मुनीश परा भवाना चातु तन्महं मतिताशयाना नूनं न मोहति मिरावृतलोचनेन कृदपि प्रविलोकितोऽसि मर्मा विधो विधुरयन्ति मामनर्थाः प्रोद्यप्रबन्धगतयः कथमन्यथैते विधृतोऽसि भक्त्या जातोऽस्मि तेन जनबान्धवदुःखपात्रम् यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः जनवत्सल हि शरण्य कारुण्यपुण्यवसदे वशिनां वरेण्य भक्त्यानते मयि महेश दयां विधाय तत्परतां विधेहि निःसङ्ख्यसारशरणं शरणं शरण्य मासाद्यसादितरिप प्रथितावदानम् त्वत्पादपङ्कजमपि प्रणिधानवन्द्यो वन्द्योऽस्मि चेत् भुवनपावनहाहतोऽस्मि ताखिल वस्तु सार संसार तारक विभो भुवनाधिनाथ त्रायस्व देव करुणा हृद मां पुनीः व्यसनाम्बुराशेः यद्यस्ति नाथ भवदङ्घ्रिसरोरुहाणा भक्तेः फलम् किमपि सन्ततसञ्चितायाः तन्मे तदेकशरणस्य शरण्यभूयाः स्वामी त्वमेव भुवनेत्र भवान्तरेति धियो विधिवत् जिनेन्द्र सात्रोल्लसत्पुलककञ्चुकिताङ्गभागाः प्रतिबिंब निर्मल मुखाम्बुज बद्ध लक्ष्या ये संस्तवन्तव विभोर चयन्ति भव्याः। जननयन कुमुद चंद्र प्रभास्वराः स्वर्ग संपदो भुक्त्वा ते विगलित मल निचया अचिरान् मोक्षं प्रपद्यन्ते अचिरान् मोक्षं प्रपद्यन्ते अचिरान् मोक्षं प्रपद्यन्ते।